ॐ नमो भगवते रुद्राय, ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः। नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः। यात इषु शिवतमा शिवम् बभूवते धनुः, शिवाशरम् व्याजातवतया नो रुद्रमृडया। याते रुद्रशिवा तनोरघोरा पापकाशिनी, तया नस्तनुभाषन्तमया गिरिशन्ताभिचाकशीः। यामिषुङ्गिरिशन्तहस्ते बिभर्षस्तवे, शिवाङ्गिरित्रताङ्गुरुमाहिगुंसेः पुरुषम् जगत्। शिवेन वचसात्ता गिरिशाच्छावदामसि, यथा नः सर्वमिज्जगदयक्ष्मगुं सुमना असत्। तज्जवोचदधि भक्ता प्रथमो दैव्योऽभिषक्, अहेगिश्च सर्वाञ्जम् भयन् सर्वाश्च यातु धान्यः। असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः, ये चेमागुम् रुद्रा अभितो दिक्षुष्यताः सहस्रशो वैशागुम् हेड इमहे। असौ यो वसर्पति नीलग्रीवो विलोहितः, उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः। उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः। नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे। अथो ये अस्य सत्ता नो हन्तेभ्यो करम् नमः। प्रमुञ्च धन्वनस्त्वमुभयोरात्मियोर्जाम्। याश्च ते हस्त इषभः पदाता भगवो वप, अवतद्यधनुस्त्वगुम् सहस्राक्षशतेषु धे। निषेर्य शल्यानाम् मुखा शिवो नः सुमना भव, विद्यन्धनुः कभर्दिनो विशल्यो बाणवागुम् उत। अनेशन्नस्येषव आभुरस्य निषङ्गतिः, याते हेतर्मेढुष्टमहस्ते बभूवते धनुः। तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा। नमस्ते अस्त्वायुधायानाततय धृष्णवे, उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने। परिते धन्वनो हेतिरस्मान्नृणक्तु विश्वतः, अथो य इषुधिस्तपारे अस्मन्निधेहितम्। नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये, नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये, नमो नमः सस्मिञ्जराय त्विषीमते पथीनाम् पतये, नमो नमो बभ्रुषाय विव्याधिनेन्नानाम् पतये, नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये, नमो नमो भवस्य हेत्यैतगताम् पतये, नमो नमो रुद्राया तथा विने क्षेत्राणाम् पतये, नमो नमः सूतायाहन्त्याय वनानाम् पतये, नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये, नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनाम् पतये नमो नम उच्चैर्घोषाय कन्दयते पत्तीनाम् पतये नमो नमः कृत्स्नभीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणेस्तेनाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायोनाम् पतये नमो नमो निचेनवे परिचरायारण्यानाम् पतये नमो नमस्काविभ्यो जिघागुंसद्भ्यो मुष्णताम् पतये नमो नमोऽसि मद्भ्यो रक्तञ्चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो दन्दाविभ्यश्च भो नमो नम आतन्दानेभ्यः प्रतिदधाने भ्यश्च भो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च भो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च भो नमो नम आसीनेभ्यश्च यानेभ्यश्च भो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च भो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च भो नमो नमः सभाभ्यः सभापतिभ्यश्च भो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च भो नमः नम आव्याधिनेभ्यो विभिद्यन्तेभ्यश्च भो नमो नम उगणाभ्यस्त्रगुंहतेभ्यश्च भो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च भो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च भो नमो नमो गणेभ्यो गणपतिभ्यश्च भो नमो नमो विरूपे भ्यो विश्वरूपेभ्यश्च भो नमो नमो माध्यक्षुल्लकेभ्यश्च भो नमो नमो रथिभ्यो रथेभ्यश्च भो नमो नमो रथेभ्यो रथपतिभ्यश्च भो नमो नमस्सेनाभ्यस्तेनानिभ्यश्च भो नमो नमः क्षत्रभ्यः सङ्ग्रहेतृभ्यश्च भो नमो नमस्तक्षभ्यो रथकालेभ्यश्च भो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च भो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च भो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च भो नमो नमो मृगयभ्यश्वनिभ्यश्च भो नमो नमस्वभ्यश्वपतिभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्यक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिभिभिष्टाय च नमो मेधुष्टमाय जेषुमते च नमो ह्रस्ताय च वामनाय च नमो बृहते च परिषेयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नम आशवे च गिराय च नमः शेग्र्याय च शेभ्याय च नम ऊर्म्याय च वस्वन्याय च नम स्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च वगल्भाय च नमो जघन्याय च बुद्ध्रियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नम श्लोक्याय च वसान्याय च नमो वर्म्याय च कक्ष्याय च नम श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नमश्चोराय च विन्दते च नमो वर्मिणे च वरोधिने च नमो भिन्मिने च कवचिने च नम श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च अनन्याय च नमो धृष्टवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमस्तीक्ष्णेषवे च युधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नेप्याय च नमः सोद्याय च सरस्याय च नमो ताद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्रियाय च तप्याय च नमो वात्याय च रेष्मयाय च नमो वास्तव्याय च वास्तुपाय च
ॐ हर 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 हर
नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमश्चङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च गोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च लात्याय च नमः शष्प्याय च फेल्याय च नमः सिगत्याय च प्रवाह्याय च नम इरण्याय च प्रपथ्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तत्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेष्ट्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोल प्याय च नम ऊर्व्याय च सोर्म्याय च नमः पर्ण्याय च पर्णशत्याय च नमोपगुरमाणाय च विघ्नते च नम आक्षिदते च प्रक्षिदते च नमो वह्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रं नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो एषाम् किञ्चनाममत् या ते रुद्र शिवा तनोः शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजी तजानो मृडजीवसे इमागुं रुद्राय तवसे कभर्तिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्चमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् ऋणानो रुद्रो तनो मयस्कृधि क्षयद्वीराय नमसा विधेमते यच्छञ्जयोश्चमनुराय जे पिता तदश्चावतव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भगम् मान उक्षन्तमुतमान उक्षितम् मानो वधेः पितरम् मोत मातरम् व्रियामानस्तनुवो रुद्ररेरिषः मानस्तोकेतनजे मान आयुषि मानो गोषु मानो अश्वेषुरेरिषः वीरान् मानो रुद्रभामितो वधेर्हविष्मन्तो नमसा विधेमते हारात्ते गोग्र उत पूरुषग्रे क्षयद्वीराजसुम् नमस्मेते अस्तु रक्षा च नो अधि च देवग्रोह्यथा च नः शर्म यच्छद्विबर्हाः त्वहि श्रुतम् गर्तसदञ्जुवानम् मृगन्न भीममुपहत्मुग्रम् मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतुर्मृणक्त्वपरित्येषस्य दुर्मतिरघायोः अवस्थिरा भगवद्भ्यस्तनुष्वमेढ्वस्तोकायतनयाय मृडया मेढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा न आचरपि नाकम् बिभ्रदा गहि विगिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशा नो भगवः पराचीना मुखाकृधि सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयो जने वधन्नानि तन्मसि अस्मिन्महत्यण्डवेन्दरिक्षे भवाधि नीलग्रीवाश्रितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासः कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम्बधिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः च एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयो जने वधन्नानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यायेन्दरिक्षे ये दिविये शामन्नम् वातो भर्षमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतेचेर्दशो देचेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेजम् भो यश्च नो द्वेष्टितम् भोजम् भेदधामि ॐ त्र्यम्बकै यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेरमामृतात् यो रुद्रो अग्नौ यो अप्सुय ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्योमत्याय गन्तवे ताय यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रमाविशान्तकः तेनान्नेनाप्यायस्व
नमो रुद्राय विष्णवे मृत्युर्मे पाहि
तमुष्टु हियस्विषु सुधन्धायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रन्नमोभिर्देवमसुरन्दुवस्य अयं मे हस्तो भगवानयं मे भगवत्तरः अयं मे विश्वभेषजो जगं शिवाभिमर्शनः ॐ शान्तिः शान्तिः शान्तिः